शिवो महेश्वरः शम्भुः पिनाकीश शशिशेखरः वामदेवो विरूपाक्षः कपरदीनीललोहितः शङ्करः शूलपाणिश्च खत्वाङ्गी विष्णुवल्लभः शिपिविष्टोऽम्बिकानाथ श्रीकण्ठो भक्तवत्सलः भवः सर्वस्त्रिलोकेशः क्षितिकण्ठः शिवाप्रियः उग्रः कपाली कामारी रन्धकासुरसूदनः गङ्गाधरो ललाटाक्षः कालकालः कृपानिधिः भीमः परशुहस्तश्च मृगपाणिर्जटाधरः कैलाशवासी कवची कठोरः त्रिपुरान्तकः वृषाको वृषभारूढो भस्मोद्धूलितविग्रहः सामप्रियः स्वरमयस्त्रैमूर्तिरनीश्वरः सर्वज्ञ परमात्मा च सोमसूर्याग्निलोचनः हविर्यज्ञमयः सोमः पञ्चवक्त्रः सदाशिवः विश्वेश्वरो वीरभद्रो प्राणनाथ प्रजापतिः हिरण्यरेता दुर्धर्षो गिरीशो गिरिशो नभः भुजङ्गभूषणो भर्गो गिरिधन्वा गिरिप्रिया कृत्तिवासाः पुरा रातिर्भगवान् प्रमथाधिपः मृत्युञ्जयः सूक्ष्मतनुर्जगद्व्यापी जगद्गुरुः व्योमकेशी महासेना जनकश्चारुविक्रमः रुद्रो भूतपतिस्थाणु अहिर्बुद्ध्यो दिगम्बरः अष्टमूर्तिरनेकात्मा सात्विकः शुद्धविग्रहः शाश्वतः खण्डपरशु रजः पाशविमोचनः मृडः पशुपतिर्देवो महादेवो व्ययो हरिः पूषदन्तभिदव्यग्रो दक्षाध्वरहरो Thank you. भगनेत्रभिदं व्यक्तः सहस्राक्षः सहस्रपाणिः अपवर्गप्रदोऽनन्तः तारकः परमेश्वरः अपवर्गप्रदोऽनन्तः तारकः परमेश्वरः अपवर्गप्रदोऽनन्तः तारकः परमेश्वरः।